सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः श्रीगुरुभ्यो नमः
धन्यवादः भगिनि सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् वर्गे अस्माकं प्रवर्तमानः विषयः अस्ति तत्र उपपदविभक्तिः इति
अहं लक्ष्मी अस्मि नमस्कारः
भगिनि नमस्कारः भगिनि गीताञ्जलि भगिनि नमस्कारः
नमस्ते महोदय क्षम्यतां महोदय
चिन्ता मास्तु भगिनि चिन्ता मास्तु हा अस्माकं प्रवर्तमानः विषयः अस्ति उपपदविभक्तयः इति अस्मिन् विषये वयं गतवर्गे तत्र अनेकानि उदाहरणानि दृष्टवन्तः तत्र उपपदविभक्तिः इत्युक्ते तत्र विभक्तिः भवति किन्तु तत्र कारणं भिन्नम् इति अतः तत्र साधारणतया विभक्तेः कारणं किं भवति तत्र उषा भगिनि वाक्ये पदम् अस्ति साधारणतया पदस्य विभक्तेः कारणं वाक्ये किं भवति भगिनि
विभक्ति अपि वक्तुं
न विभक्तेः कारणं किं भवति तत्र रामः वनं गच्छति वनम् इति
कर्मपदम्
कर्मपदं द्वितीयविभक्त्यन्तम् इति वदामः अतः तत्र कारणं किम् अस्ति तत् तस्याः विभक्तेः कारणं किं साधारणविभक्तिः अत्र खलु अतः साधारणकारणं किम् अस्ति किन्तु कारणं किम् अस्ति न श्रूयते वा
आम् महोदय ध्वनिः आगच्छति महोदय
ध्वनिः अस्ति अन्येषां ध्वनिः अस्ति वा सम्यक्तया श्रूयते वा
नास्ति महोदय अत्र
ध्वनिः
ध्वनिः अस्ति किन्तु श्रूयते महोदय किञ्चित् ध्वनिः अस्ति
इदानीं श्रूयते वा
किञ्चित्
आं महोदय
हा हा हा
श्रूयते महोदय न किञ्चित् ध्वनिः आगच्छति
ध्वनिः आगच्छति अस्तु अस्तु तर्हि अस्तु उषा भगिनी अतः तत्र साधारणकारणं किं
कारकम् अस्ति
कारकम् अतः किं पदं कारणं भवति तत्र वाक्ये किं पदं न कर्मपदस्य विभक्ति हा क्रियापदं कारणं भवति क्रियापदं कारणं भवति क्रियापदं मध्ये अस्ति क्रियापदेन यः सम्बन्धः अस्ति सः सम्बन्धः एव तत्र कारणं भवति तं सम्बन्धं दृष्ट्वा वयं यदि एकं पदं स्थापितुम् इच्छामः वाक्ये तर्हि कः सम्बन्धः इति प्रश्नः भवति हा तं सम्बन्धं दृष्ट्वा तस्य रूपं स्वीकृत्य अस्तु अत्र द्वितीयविभक्ति समीचीनं भवति यतोहि सम्बन्धः एषः सम्बन्धः अस्ति इति चिन्तनं भवति तदनन्तरं तत्र तादृशरूपं स्थापयामः अतः साधारणतया
क्रियापदं
कारणं भवति यानि पदानि वाक्ये सन्ति तेषां सर्वेषां साधारणतया क्रियापदं विभक्तेः कारणं भवति किन्तु अत्र उपपदविभक्तेः इत्युक्ते तत्र क्रियापदं कारणम् अस्ति न वा गीताञ्जलि भगिनि क्रियापदं कारणं वा उपपदविभक्तेः कारणं
न महोदय अत्र तु उपपदस्य उपपदमेव कारणं भवति
उपपदमेव कारणं उदाहरणार्थं किम्
उदाहरणार्थं महोदय यथा प्रति इति एकम् उपपदम् अस्ति प्रति योजयामश्चेत् वाक्ये तदनन्तरं तस्य पूर्वस्य पदं तु द्वितीय एव भवति अपि च सदृश अस्ति चेत् तत् कारणं तृतीय भवति तस्य पूर्वपदम्
इति समीचीनं भगिनि अतः तत्र उपपदम् इति तत्र प्रतीति उपपदं भवति अथवा सदृशः इति अपि उपपदं भवितुम् अर्हति. तेन पदेन तत्र तस्य पूर्वपदस्य विभक्तेः रूपं तत्र द्वितीया वा तृतीया वा किमपि भवति. अतः तत्र उपपदम् एव तत्र कारणम् इति. अस्तु, समीचीनम्. अतः तत्र लक्ष्मी भगिनी, अतः तत्र अर्जुनः कौरवसेनां प्रति सङ्केतं कृतवान् इति अस्ति. तत्र कृतवान् इति सकर्मकक्रियापदं खलु, तत्र सकर्मकम् इति चिन्तयामः खलु, तत्र करोति इति चिन्तयामश्चेत्. अतः तत्र कौरवसेनाम् इति अस्ति, तत्र कौरवसेनां कर्मपदं भवति वा? द्वितीयविभक्त्यन्तम् अस्ति खलु तत्.
पुटं, पुटसङ्ख्या कुत्र
भवती जानाति? गीतासोपाने द्वितीयपुटे भगिनि, यत्र उदाहरणानि सन्ति प्रति दिक्, गतवर्गे तत् कृतवन्तः भगिनि. तत्र गीतासोपाने द्वितीये पुटे तत्र उपरि 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 गच्छतु. उपरि अस्ति तत्र प्रति इति प्रति प्रथम उदाहरणं, प्रथम उपपदम् नास्ति वा? न प्राप्तं वा? अस्तु, चिन्ता मास्तु भगिनि, अन्यं पृच्छामः. मधुमहोदय नमस्कारः. नमस्कारः, नमस्कारः. तत्र गीतासोपने द्वितीयपुटे स्मः महोदय. अस्तु, वेदा भगिनि, अतः तत्र प्रति इति उदाहरणम् अस्ति खलु भगिनि? तत्र अर्जुनः कौरवसेनां प्रति सङ्केतं कृतवान् अथवा करोति इति, यदि लट् लकारे अस्ति चेत् तत्र करोति इति तत्र सकर्मकधातुः. तत्र कौरवसेनाम् अस्ति, तत् कर्मपदं वा?
मन्ये प्रति प्रति लक्षणार्थमस्ति, प्रति कौरवानां प्रति सूचयति.
समीचीनं भगिनि. अतः तत्र करोति इति तत्र सकर्मकधातुः अस्ति. यद्यपि करोति इति सकर्मकधातुः अस्ति, तथापि तत्र कौरवसेनाम् इति कर्मपदं नास्ति, तत्र सङ्केतम् इति एव कर्मपदम्. कौरवसेनां तत् द्वितीयविभक्त्यन्तं किमर्थमस्ति इत्युक्ते तत्र प्रति इति उपपदम् अस्ति. तेन उपपदेन एतस्य पदस्य द्वितीयविभक्त्यन्तरूपम् अभवत् इति. समीचीनं भगिनि. अस्तु, अतः
महोदय प्रश्नः, वाक्ये सञ्जयः धृतराष्ट्रं प्रति अवदत्, धृतराष्ट्रं किमर्थं रक्तवर्णे दत्तम् अस्ति महोदय? धृतराष्ट्रं कौरवसेनां गुरुम् अपि च,
यतोहि तत्र सः एव मूलविषयः अस्ति खलु. तत्र प्रति इति पदम् अस्ति, तद् उपपदम् अस्ति भगिनि. अपि तस्य उपपदस्य प्रभावः कुत्र भवति इति दर्शयितुं तस्य पदस्य अपि रक्तवर्णं स्वीकृतम् अस्ति इति मन्ये. तावदेव. तत्र सर्वत्र तादृशं नास्ति इति मन्ये, किन्तु तत्र यत्र अत्र प्रायशः तत् सः एव आशयः अस्ति इति मन्ये भगिनि. तत्र उपपदमस्ति चेत् उपपदस्य प्रभावः कस्मिन् पदे भवति
इत्युक्ते उपपदस्य प्रभावः धृतराष्ट्रं
तस्य उपरि अस्ति. अतः धृतराष्ट्रः इति पदं तत्र द्वितीयविभक्तिरूपं स्वीकृत्य तत्र स्थापितम् अस्ति. समीचीनं वा?
खलु,
तत्र वयं जानीमः उपपदम् अस्ति चेत् तत्र साधारणतया पूर्वपदं तस्य उपरि प्रभावः अस्ति, किन्तु सर्वदा तादृशः भवति वा? तत्र पश्यामः, तत्र नरेश् महोदय, नरेश् महोदय, तत्र उपपदम् अस्ति चेत् उपपदस्य प्रभावः साधारणतया पूर्वपदस्य उपरि अस्ति. यत् तत्र उदाहरणार्थं प्रति इति अस्ति चेत् प्रति इति प्रभावेन, पदस्य प्रभावेन धृतराष्ट्रम् इति द्वितीयविभक्त्यन्तम् अस्ति, पूर्वपदम् अस्ति. सर्वदा पूर्वपदं पदस्य उपरि एव तत्र प्रभावः भवति वा उपपदस्य?
न न कदाचित् परम्पदम् अपि
परम्पदं यत् अस्ति तस्य उपरि अपि तत्र प्रभावः भवति. उदाहरणार्थम्
अस्ति
सदृशः नास्ति, किन्तु किन्तु अन्यत् अन्यत् अस्ति महोदय, तत्र एव अस्ति तस्मिन्नेव पुटे, अस्मिन्नेव पुटे. हा दिक् इति समीचीनं भवति खलु महोदय.
आम् दिक् परं द्वितीयविभक्ति.
हा दिक् इति उपपदम् अस्ति, तस्मात् परं पदं यत् अस्ति तद् भवति द्वितीयविभक्त्यन्तम्. अतः तत्र उपपदस्य प्रभावः सर्वदा पूर्वपदस्य उपरि इति न वक्तुं शक्नुमः, परपदस्य उपरि अपि भवितुम् अर्हति. समीचीनं महोदय.
परन्तु प्रतिविषये पूर्वपदमेव
पदं. हा सत्यं भगिनि. हा हा प्रत्येकस्य उपपदस्य ये प्रत्येक नियमः हा, किन्तु सर्वदा तत्र पूर्वपदम् इति एव न वक्तुं शक्नुमः, सर्वदा परपदमपि इति न वक्तुं शक्नुमः. सन्दर्भानुसारं तत्र यत् पदं यत् उपपदम् अस्ति तत् तद् दृष्ट्वा तस्य नियमः कः इति तत् तत्रापि तादृश हा तत्रापि आलोचनं भवेत्. अतः अस्तु, अतः तत्र गतवर्गे वयं किं किं दृष्टवन्तः, तत्र प्रति दिक् अलं सदृशः ऋते विना पूर्वपर इति दृष्टवन्तः. तत्र प्रति इति तत्र प्रभावः कुत्र अस्ति, पूर्वपदे पूर्वपदस्य विभक्तिः का, का? द्वितीया विभक्तिः. अस्तु अग्रे तत्र ललिता भगिनी, इदानीं दिक् इति अस्ति चेत् तत्र कस्य उपरि प्रभावः भवति, पूर्वपदस्य उपरि अथवा परपदस्य उपरि? हा पर दिक् इति पदस्य दिक् इति पदमस्ति, तस्मात् परं यत् पदमस्ति तस्य उपरि तस्य प्रभावः अस्ति. समीचीनं भगिनि. तत्र तत्र परपदस्य विभक्तिः का? परपदस्य दिक् इति अस्ति, तदनन्तरं पदं भवति तस्य विभक्तिः का? द्वितीया विभक्ति. समीचीनं. अस्तु अस्तु अग्रे इदानीं हा श्रीप्रिया भगिनी नमस्कारः, वंशीसुतं भगिनी नमस्कारः.
नमस्ते महोदय.
नमस्कारः भगिनी. नमस्कारः भगिनी. हा अस्तु, इदानीं तत्र मधु महोदय, तत्र अलम् अस्ति चेत् तत्र अलम् इति उपपदम् अस्ति, तत्र तस्य प्रभावः कस्मिन् पदे भवति, पूर्वपद पदस्य उपरि वा अथवा परपदस्य उपरि?
परपदस्य उपरि अस्ति.
हा परपदस्य उपरि अलम् इति पदमस्ति, तस्य अनन्तरं यत् पदं भवति तस्य उपरि अलम् इति पदस्य प्रभावः अस्ति. समीचीनं. तत्र हा तत्र परपदस्य विभक्ति का भवति महोदय?
तत्र चतुर्थी विभक्तिः भवति.
चतुर्थी अथवा तृतीया अलम् अस्ति. अलम् इति तत्र यदि पर्याप्तम् इति चिन्तयामः तत्र चतुर्थी भवति, तत्र समर्थः इति समर्थः इति तत्र हा तत्र समर्थः इति अर्थे तत्र पर्याप्त्यर्थे तत्र चतुर्थी विभक्ति अपि तत्र मास्तु इति अर्थे तत्र तृतीया विभक्ति. अस्तु समीचीनं महोदय. अस्तु श्रीप्रिया भगिनी, इदानीं तत्र सदृशः इति उपपदम् अस्ति खलु? हा अस्तु, तत्र तस्य प्रभावः उपपदस्य प्रभावः वाक्ये कस्मिन् पदे कस्य पदस्य उपरि भवति भगिनी, तत्र पूर्वपदस्य उपरि वा परपदस्य उपरि?
पूर्वपदस्य उपरि.
हा पूर्वपदस्य उपरि तस्य प्रभावः अस्ति. हा तत्र नियमः कः भवति भगिनि, तत्र पूर्वपदस्य विभक्ति का?
पूर्वपदस्य विभक्ति तृतीया विभक्तिः भवति.
तृतीया विभक्तिः भवति. समीचीनं भगिनि. हा अस्तु, तत्र अपि सदृशः इति वयं दृष्टवन्तः, तत्र सदृशः इति तत्र अलं दिक् प्रति इति तु अव्ययं, ते तु अव्ययानि सन्ति, किन्तु सदृशः इति तत्र अव्ययम् अस्ति वा?
विशेषणम् अस्ति.
विशेषणं भवति. अतः तत्र रूपत्रयम् अस्ति, पुल्लिङ्गे सदृशः, स्त्रीलिङ्गे
सदृशी, नपुंसकलिङ्गे सदृशम् अस्ति.
सदृशम् अपि साधारण तत्र अकारान्त वा ईकारान्त वा तत्र देवशब्दवत् वा अथवा स्त्रीलिङ्गे सदृशी
नदी
शब्दवत् अपि सदृशं तत्तु वनं फलं शब्दवत्. समीचीनं भगिनि. अस्तु अग्रे वंशीसुधा भगिनी, तत्र ऋते इति उपपदम् अस्ति, तत्र तस्य प्रभावः कुत्र भवति भगिनि? पूर्वपदस्य उपरि वा परपदस्य उपरि?
पूर्वपदस्य उपरि भवति, अपि पूर्वपदं पञ्चमी विभक्तौ भवितुम् अर्हति महोदय.
हा समीचीनं भगिनि. हा अपि ऋते इति तत्तु अव्ययं वा विशेषणं वा?
ऋते तु अव्ययमेव.
अव्ययं हा ऋते इति तु अव्ययमेव. समीचीनं भगिनि. अस्तु अस्तु. शोभा भगिनी, इदानीं तत्र विना इति उपपदं तत्र पूर्वपदस्य उपरि वा परपदस्य उपरि वा तस्य प्रभावः?
तत्र पूर्वपदस्य उपरि तस्य प्रभावः भवति महोदय.
अपि
च विभक्तेः त्रीणि तिस्रः विभक्त्यः भवन्ति, द्वितीया, तृतीया, अपि च पञ्चमी विभक्ति अपि भवति. तत्र ज्ञानं विना, ज्ञानेन विना, ज्ञानात् विना इति दृष्टवन्तः.
इदानीं अन्यः प्रश्नः तत्र भवति, तत्र वयम् अलम् इति दृष्टवन्तः, तत्रापि विभक्तिद्वयं भवितुम् अर्हति, किन्तु तत्र तादृशः अत्रापि अस्ति वा अथवा भेदः अस्ति वा? तत्र अलम् इति तत्र तृतीया भवति, चतुर्थी अपि भवति, अत्र द्वितीया वा तृतीया वा पञ्चमी वा भवति, तत्र सामान्यमस्ति.
अलम् इत्यस्य कृते अर्थभेदः भवति. यदि तृतीया भवति चेत् मास्तु इति, अपि च चतुर्थी चेत् तत्र तु पर्याप्तम् इति अर्थे, यथा भीमः दुर्योधनाय अलम् इति उदाहरणं दृष्टवन्तः. किन्तु विना इत्यस्य विषये तु द्वितीया, तृतीया, अपि च पञ्चमी अर्थभेदः नास्ति तत्र.
हा अर्थभेदः नास्ति. यद् यदपि यद् इच्छामः तत् स्थापितुं शक्नुमः. समीचीनं भगिनि. हा अतः तत्र विना इति तत्र विकल्पः अस्ति, ज्ञानं, ज्ञानेन, ज्ञानात् अर्थभेदः न भवति. समीचीनम्. अस्तु अपि
महोदय, तत्र अर्थभेदः न भवति, किन्तु किमपि कारणं तु भवति किल, कदा वयं द्वितीया, तृतीया, अपि च पञ्चमी योजयामः इति?
तत्र
किमपि कारणम् अस्ति इति चिन्तनं
न जानामि भगिनि. प्रश्नः तु समीचीनः एव, किन्तु तत्र अर्थभेदः नास्ति चेत् तत्र
काण्टेक्स्ट् इति
प्रायशः तत्र प्रायशः तत्र सूक्ष्मभेदः भवति न वा इति तदपि इति प्रश्नः खलु भवत्याः? तत् न जानामि भगिनि. अहं चिन्तयामि, मम चिन्तनमस्ति तत्र अर्थभेदः न भवति एव, तत्र समानार्थकः इति. किन्तु पुनरेकवारं पृच्छामि, तत्र अन्यान् पृच्छामि तत्र. किन्तु मम चिन्तनमस्ति तत्र अर्थभेदः नास्ति एव, यत् इच्छामः तत् स्थापितुं शक्नुमः.
लोके तादृशी प्रयोगः इति भवति किल, तदा एव एतस्य रूपाणि भवितुम् अर्हति.
अतः किन्तु तत्र पुनरेकवारं अहम् अपि किञ्चित् अन्वेषणं करोमि भगिनि.
अस्तु महोदय.
किन्तु किन्तु मम चिन्तनम् अस्ति तत्र प्रायशः एषः एव एतदेव उत्तरं भवति, नाम तत्र समानार्थकः इति, तत्र भेदः. किन्तु किन्तु तत्र पुनरेकवारं तत्र पृच्छामश्चेत् हानिः नास्ति. अस्तु तदनन्तरं गीताञ्जलिभगिनी, तत्र इदानीं पूर्वपरम् इति अस्ति तत्र.
आम् आं महोदय, पूर्वपदम् अस्ति चेत् तत्र पूर्व पदं पञ्चमी भवति, पूर्वम् इति
तत्र किञ्चित् विचित्रः अस्ति खलु भगिनि, तत्र पूर्व इति उपपदम् अस्ति चेत् तस्य पूर्वपदस्य
पूर्वपदं पञ्चमी, अपि च परं पदम् अस्ति चेत् तत् परं पदस्य
तस्मात् परं तस्मात् पूर्वपदस्य
पूर्वपदस्य विभक्ति पञ्चमी अपि
इति भवति. समीचीनं भगिनि, हा समीचीनम् अस्तु.
परन्तु महोदय कुत्रापि परः एवं दत्तं, कुत्रापि परं दत्तं, परं पूर्वं
सत्यं 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 भगिनि. अस्मिन् विषये गतवर्गे अपि किञ्चित् चर्चा आसीत् खलु, अतः तत्र अस्तु. तत्र उषा भगिनी अपि मह्यं प्रेषितवती तत्र अर्थाः, अर्थान् प्रेषितवती. धन्यवादः भगिनी उषा भगिनी. अपि अहमपि पृष्टवान्, अतः तत्र उत्तरं मया यत् प्राप्तं तद् वदामि. तत्र उत्तरमस्ति तत्र परः अपि पूर्वः अपि पूर्वम् अपि परम् इति अस्ति. तत्र अव्ययम् इति एकं रूपम् अस्ति, अव्ययम् अस्ति चेत् तत्र परम् अथवा पूर्वम् इति भवति. विशेषणम् अस्ति चेत् तत्र परः परा अथवा परम् इति भवति. इदानीं तत्र प्रश्नः अस्ति, तत्र कदा, तत्र गतवर्गे मम चिन्तनम् अस्ति तत्र यथेच्छा तत्र अव्ययरूपं वा अथवा विशेषणरूपं स्थापितुं शक्नुमः इति, किन्तु तद् तत्र दोषः अस्ति. तत्र नियमः एषः अस्ति, तत्र तस्मात् इति अर्थे भवति चेत् तत्र अव्ययरूपं स्वीकृतं भवति. अतः तत्र युद्धात् परं दुःखं भवति. तत्र तस्मात् एकं भवति, तदनन्तरम् अन्यत् भवति चेत् तत्र अव्ययरूपं स्वीकृतम् अस्ति. अतः तत्र ध्यानात् परं शान्तिः प्राप्यते. साङ्ख्ययोगात् पूर्वम् अर्जुनविषादयोगः, गीतोपदेशात् परम् अर्जुनः युद्धार्थम् उत्सहते इति. किन्तु तत्र रामः अस्ति, तदनन्तरं लक्ष्मणः अस्ति चेत् तत्र रामः लक्ष्मणात् पूर्वः अपि लक्ष्मणः रामात् परः इति तत्र भवति. तत्र विशेषणरूपं स्वीकृतम् अस्ति इति उत्तरं प्राप्तं मया. अतः तत्र पूर्वः परः इति विशेषणरूपं यत्र उपयुज्यते इत्युक्ते यत्र यत्र तस्मात् इति अर्थे अस्ति तत्र अव्ययरूपं स्वीकृतम्, अन्यत्र विशेषणरूपं विशेषणरूपं स्वीकरणीयम् इति. अस्तु, धन्यवादः भगिनि. हा तत्र गतवर्गे महती चर्चा आसीत् खलु, अतः अपि
महोदय क्षम्यतां महोदय, तत्र परा अपि अस्ति,
परा इति स्त्रीलिङ्गे. तत्र सीता अस्ति अपि, सीता सीतायाः परा तत्र किं का भवति सीतायाः परा तत्र कोऽपि एतत्
ऊर्मिला.
हा ऊर्मिला, धन्यवादः भगिनि. हा ऊर्मिला श्रुतकीर्ति अपि अन्या का
नाम
हा एतत् स्मरणीयमस्ति भगिनि. हा तत्र अहं विषादम् अनुभवामि. तत्र हा सीता अस्ति, ऊर्मिला अस्ति, श्रुतकीर्ति अस्ति, ऊर्मिला लक्ष्मणस्य पत्नी
भार्या,
भार्या. किन्तु तत्र भरतस्य
श्रुतकीर्ति
न श्रुतकीर्ति शत्रुघ्नस्य
भरतस्य माण्डवी.
हा माण्डवी, धन्यवादः भगिनि. हा माण्डवी, हा धन्यवादः. वदतु भगिनि.
मनसि अस्ति महोदय, किञ्चित् मा इति स्मरामि.
धन्यवादः भगिनि, समीचीनम्. अतः तत्र सीतायाः परा माण्डव्याः परा ऊर्मिला इति तत्र तादृशप्रयोग.
तत्र मनसः परा बुद्धिः, मनसः तु
तदनन्तरं तत्र विशेषणं कस्य पदस्य विशेषणं भवति भगिनि? बुद्धिः इति पदमस्ति तस्य विशेषणं परा अस्ति.
ओ अस्तु, अत्र
विशेषणम् अस्ति खलु, अतः तत्र विशेषणम् अस्ति इत्युक्ते तत्र मनसः तत्तु षष्टिविभक्तौ अस्ति. तत्तु पूर्वपदं मनसः, तत् षष्टि, क्षम्यतां, षष्टि न, पञ्चमी. तदनन्तरं बुद्धिः इति अस्ति, अतः तस्य विशेषणं परा.
अस्तु महोदय, धन्यवादः.
अस्तु, सः एकः विषयः गतवर्गे वयं चर्चितवन्तः, तत्र तद् एकं विषयम् अस्ति, तम् एकं विषयं, सः एकः विषयः अस्ति. अपि अन्यः विषयः यं वयं गतवर्गे चर्चितवन्तः सः अस्ति तत्र भगवद्गीतायाः श्लोके, ज्ञानवान् अपि स्वस्याः प्रकृते सदृशं चेष्टते. तत्रापि किञ्चित् अहं पृष्टवान्, तत्र उत्तरं मया यत् प्राप्तं तद् वदामि. तत्र उदाहरणं किं दत्तमासीत्, तत्र केवलं कालिदासस्य सदृशः कविः अन्यः नास्ति इति एव उदाहरणम्, एकमेव उदाहरणं दृष्टवन्तः वयम्. अतः तत्र क्लेशः अस्ति. तत्र ज्ञानवान् अपि स्वस्याः प्रकृतेः सदृशं चेष्टते. तत्र किम् अस्ति, तत्र अत्र कालिदासस्य सदृशः कविः अन्यः नास्ति. तत्र कविः इति कर्तृपदम् अस्ति, सदृशः इति कर्तृपदस्य विशेषणम् अस्ति. अपि तत्र तुलना भवति, तत्र कविः अस्ति कोऽपि कविः, अपि अन्यः अस्ति कालिदासः. तयोः मध्ये वयं तुलनां कुर्मः, तत्र कालिदासस्य सदृशः कोऽपि अन्यः नास्ति, कोऽपि अन्यः कविः नास्ति इति वाक्यं तत्र भवति. अतः तत्र पुरुषद्वयं वा महिलाद्वयं वा, तत्र द्रौपद्याः सदृशी महिला इति, तत्र पुरुषद्वयं वा महिलाद्वयं वा भवति, किन्तु अस्मिन् वाक्ये तत्र पुरुषद्वयं नास्ति महिलाद्वयं नास्ति, अतः किञ्चित् क्लेशम् अनुभूतवन्तः खलु गतवर्गे. अतः तत्र एतत् अस्ति, तत्र चेष्टते इति अस्ति. चेष्टते इति क्रियापदस्य विशेषणमस्ति सदृशम् इति, तत्र अत्र अथवा तत्र किं, हा तत्र सदृशम् इति तत्र क्रियाविशेषणम् इति तादृशरूपम् अस्ति. तत्र क्रियाविशेषणम् अस्ति चेत् तत्र किं भवति, तत्र क्रियाविशेषणम् अस्ति चेत् तस्य विभक्ति का,
क्रियाविशेषणम्.
अतः तत्र सदृशम् इति तत्र क्रियाविशेषणम् इति अस्ति, तस्य क्रियाविशेषणम् अस्ति चेत् तत्र द्वितीयाविभक्तौ भवति. अपि प्रकृतेः इति, तत्र प्रकृतेः सदृशं चेष्टति. अतः तत्र वार्ता भिन्ना अस्ति अत्र अस्मिन् वाक्ये. अतः तत्र अस्माकं क्लेशः आसीत्, तत्र कालिदासस्य सदृशः कविः अन्यः नास्ति. तादृशं वाक्यम् एतद् वाक्यं नास्ति, भिन्नं वाक्यम् अस्ति, भिन्नप्रयोगः अस्ति अस्मिन् वाक्ये. अतः तत्र सदृशम् इति एव आवश्यकमस्ति, तत्र द्वयं पुरुषद्वयं वा महिलाद्वयम् इति आवश्यकं नास्ति. अतः किन्तु सदृशम् अस्ति चेत् तत्र तस्य पूर्वपदस्य, तस्मात् पूर्वपदं यत् अस्ति तस्य किं षष्टि इति, अतः प्रकृतिः इति अस्ति, तस्य षष्टिविभक्तिरूपं भवति इति वार्ता. अस्तु अस्तु, तर्हि इदानीं तत्र अभ्यासः, अभ्यास प्रायशः किञ्चित् द्वय अभ्यासद्वयं कृत्वा, तत्र कथा अपि अस्ति, तां कथामपि पठितुं शक्नुमः इति मन्ये. अतः अस्तु, तर्हि तत्र पश्यामः, प्रथम अभ्यासः कुर्मः. अस्तु, शुभदा भगिनी भवती एव आरम्भं करोति वा?
आं महोदय, एकनिमिषम्. अभ्यासः वा?
अभ्यासः,
यथोदाहरणं कोष्टकस्यैः शब्दैः वाक्यानि रचयतु. शब्दाः दत्ताः सन्ति वैराग्यं, कामः, द्वन्द्वं, संशयः, अधर्मः, मोहः, अशान्तिः, युद्धम्, अश्रद्धा, अज्ञानं, निद्रा, प्रमादः, क्रोधः, दुःखं, भीतिः, आलस्यम्, ईर्ष्या, अहंकारः. रजनी अभ्यासपुस्तके आचार्यस्य उपदेशं लिखति, तस्याः साहाय्यं कुरुत. उदाहरणार्थम् आचार्यः उक्तवान् यत् अलं क्रोधेन.
आचार्यः उक्तवान् किम् उक्तवान्? अलं क्रोधेन. अलं तत्र क्रोधं, क्रोधः मास्तु. इदानीं तत्र यत् किं स्वीकरोति भगिनी भवती, यत्किमपि अस्ति तत् स्वीकृत्य वाक्यं रचयतु. तत्र केवलं तत्र किं तत्र प्रति दिक् अलं सदृशः ऋते विना पूर्व पर इति उपयुज्य वाक्यं रचनीयमस्ति.
महोदय, दिक् संशयः समीचीनं वा?
दिक् इति अस्ति चेत् तत्र किं भवति? दिक् अस्ति चेत् द्वितीयाविभक्ति समीचीनम् अस्तु. नरेश महोदय अग्रे. नरेश महोदय,
अलं दुःखेन.
अलं दुःखेन तृतीयाविभक्ति समीचीनम् अस्तु. ललिता भगिनी अग्रे.
वैराग्यमपि उपयोगः
यद् इच्छति करोतु.
ओके ओके. आचार्यः उक्तवान् यत् वैराग्यं विना किमपi साधितुं न शक्यते.
हा समीचीनं भगिनि. हा वैराग्यं विना किमपि न साधितुं शक्यते. तत्र वैराग्यम् इति स्थाने अन्यत् किं स्थापितुं शक्नुमः?
वैराग्येन विना वा? वैराग्यस्य
तदपि समीचीनं. वैराग्यस्य ऋते, किन्तु ऋते इति भिन्नम् अस्ति भगिनि. वैराग्यात् विना इति एव चिन्तयामः.
वैराग्यात् पञ्चमी अपि साधु अस्ति.
साधु समीचीनं भगिनि अस्तु. धन्यवादः अस्तु. अग्रे उषा भगिनि.
धन्यवादः.
आम् महोदय. कामः अस्ति, कामेन विना कार्यं कुरु, कर्म कुरु.
कामेन विना कर्म कुरु समीचीनं भगिनि.
क्षम्यतां महोदय, सर्वान् शब्दान् अलम् उपयुज्य कर्तुं शक्यते खलु?
सर्वान् कर्तुं शक्यते वा?
अलं वैराग्येण, अलं कामेन, अलं द्वन्द्वेन, अलं संशयेन,
अलं
निद्रया,
अलं का
सर्वम्, अलम्
सर्वं कर्तुं शक्यते. अस्तु तर्हि एतत् कुर्मः तर्हि तत्र. अस्तु भगिनि, अस्तु चिन्तयामः. तत्र वैराग्यम् अतः तत्र किं भवति, रूपं किं भवति, सर्वे मिलित्वा कुर्मः अत्र.
अलं वैराग्येण.
अस्तु, इदानीं तत्र कामः अस्ति चेत्
कामेन.
अस्तु, द्वन्द्वं,
अलं द्वन्द्वेन,
द्वन्द्वेन.
संशयः,
संशयेन,
संशयेन.
अस्तु, अधर्मः, अस्तु, मोहः,
मोहेन, अलं मोहेन.
अस्तु, अशान्तिः,
अलम् अशान्त्या,
अलम् अशान्त्या. अस्तु, युद्धम्,
अलं युद्धेन.
अश्रद्धा,
अलम् अश्रद्धया,
अश्रद्धया. अस्तु, अज्ञानम्,
अलम्
अज्ञानेन, निद्रा,
अलम्
निद्रया.
प्रमादः,
अलं प्रमादेन,
प्रमादेन. अस्तु, क्रोधः, सर्वं मिलित्वा वदन्तु,
अलं
क्रोधेन. दुःखं,
दुःखेन,
अलं दुःखेन.
भीतिः, आलस्येन अस्तु ईर्ष्या
अलम् ईर्ष्याया
ईर्ष्यया 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 सत्यं वा ईर्ष्या 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 समीचीनं हा ईर्ष्या अस्तु अस्तु धन्यवादः. अहं किमर्थं मम मनसि नदी शब्दम् आसीत् इति न जानामि. धन्यवादः. अस्तु हा ईर्ष्यया इति एव समीचीनम्. अस्तु हा अपि अहङ्कारः अहङ्कारेण. अस्तु अस्तु तर्हि तत्र केवलम् अलम् इति एव आसीत्. अस्तु
सर्वाणि दुर्गुणानि
अलम् इति. अस्तु हा
महोदय तत्र अपि अशान्तिं प्रति मा गच्छतु इति अपि वयं भवितुं कर्हति इत्युक्ते
अशान्तिं प्रति मा गच्छतु. हा समीचीनं भगिनि. हा
अपि च धिक् यथा भगिनी उक्तवती धिक् संशयम् अपि च प्रमादात् ऋते इति समीचीनं
महोदय. सत्यं भगिनि सत्यं. हा तत्र अलम् उपयुज्य अपि कर्तुं शक्नुमः. अन्यानि रूपाणि अन्यानि वाक्यानि अपि वयं रचितुं शक्नुमः. सत्यमेव भगिनि सत्यं. हा सत्यमेव.
परन्तु महोदय वैराग्यमिति दुर्गुणः नास्ति खलु. अलं वैराग्येण किमर्थम् उच्यते?
अस्तु समीचीनं भगिनि.
अर्जुनस्य कृते
समीचीनमेव समीचीनमेव. हा तदपि समीचीनं तत्र. हा अर्जुनस्य कृते तत् समीचीनम्.
युद्धसमये अर्जुनस्य कृते.
हा युद्धसमये अर्जुनस्य कृते तत् समीचीनं. किन्तु शुभदा भगिनी सत्यमेव तत्र किमर्थम् अलं वैराग्यम् इति वदा. किन्तु तत्र ललिता भगिनी उक्तवती खलु तत्र वैराग्येन विना किमपि न
विना सम्यक् अस्ति.
अस्तु
एकः संशयः वैराग्येन नत्वं भवति वा?
हा भवति भगिनि. यतोहि तत्र रकारान्तस्य अपि नकारस्य मध्ये कः वर्णः अस्ति?
स्वरः अस्ति.
यकारः अस्ति. यकारात् बाधा नास्ति. अपि गकारः अस्ति चेत् ग ग इति तु कवर्गीय अस्ति अतः तत्र बाधा नास्ति. बाधा नास्ति. कवर्गीय वा कवर्गीय वा बाधा नास्ति. अतः तत्र नत्वं.
धन्यवादः.
अस्तु तर्हि अतः तत्र एतत्तु बहु स्वीकृत्या कृतवन्तः. तत्र द्वितीया अपि तादृशः भवति वा अभ्यासः तत्र ऋते इति? अस्तु अस्तु तर्हि तत्र अस्तु एतत् द्वितीय अभ्यासः अपि परिशीलयामः तत्र. अस्तु आरम्भं तत्र. हा वेदा भगिनी इदानीम् आरम्भं करोतु भगिनि.
क्षम्यतां
श्रीप्रिया भगिनि वदतु भगिनि.
द्वन्द्वं प्रमादः एतयोः अर्थः कः महोदय?
द्वन्द्वं हा द्वन्द्वम् इत्युक्ते तत्र भगिनी तत्र डिलेमा इति वद तत्र
संशयः.
तत्र संशयः इत्युक्ते यत्र तत्र एतद् भवति न वा इति संशयः. किन्तु तत्र द्वय हा तत्र प्रसिद्धः
मनसि द्वन्द्वं
हा तादृश तत्र ड्युवालिटि वदामः तत्र आपोसिट् विरुद्धार्थकः स्थितिः तद्वन्द्वं भवति. अतः तत् क्लेशः नास्ति. तेन क्लेशः भवति. किन्तु द्वन्द्वम् इत्युक्ते तत्र यत्र हा तत्र अहम् एतत् इच्छामि एतत् न इच्छामि तत्र द्वन्द्वम् अस्ति. अतः तादृश अपि प्रमादः इति तत्र प्रमादः इत्युक्ते तत्र लोकस्य अनुभवे इच्छा इति तत्र तदपि तत्र हा तत् कदा
वक्तव्यं
किं भगिनि?
नेग्लिजेन्स्
नेग्लिजेन्स् इति न प्रमादः इति नेग्लिजेन्स् इति नास्ति इति मन्ये भगिनि. तत्र
अज्ञानेन इति
किं भगिनि
अज्ञानेन इग्नोरेंस
तत्र तादृश अर्थः प्रमादः तत्र अस्मिन् लोके एव मग्नः इति तत्र हा तत्र
अवधानं नास्ति इति अपि अस्ति महोदय अनवधानता इति
हा
अवधानं नास्ति चेत् प्रमादः
तत् नेग्लिजेंट इति अर्थे भवति अस्तु हा तत् ज्ञातवान् हा किन्तु प्रमादः इत्युक्ते तत्र ज्ञानं तत्र लोके मग्नः इति अर्थः आसीत् इति चिन्तितवान् अस्तु द्रष्टव्यमस्ति भगिनि अन्यत् कोऽपि
प्रमादः इत्यस्य अर्थः स्पोकन् संस्कृत् डाट् ओ आर् जि तस्मिन् दोषः पातकः पापः अपराधः इति दत्तमस्ति
अस्ति वा
अपराधः अपराधः सौण्ड्स् गुड्
सर्वं दृष्ट्वा किम् अलम् इति एव खलु तत् समीचीनं नास्ति इति एव खलु इदानीं तत्र
प्रमादस्य एक्साक्ट् मीनिङ्ग् क्रैम् इति अस्ति क्रैम् लैक्
किन्तु महोदय एकं वदामि पतञ्जलियोगसूत्र तत्र दत्तं प्रथमाध्याय त्रिंशत्तमं सूत्रं व्याधिस्थानसंशयप्रमादालस्य विरति भ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि इति एकं सूत्रं दत्तं तत् सूत्रे प्रमाददत्तं व्याधि बहु किमपि असमीचीनानि गुणानि दत्तानि प्रमाद तत्र तु केर्लेस्नेस् नेग्लिजेन्स् इति स्पष्ट अर्थस्पष्ट तत्र एव भवति
धन्यवादः तत्तु अहं न ज्ञातवान् अस्तु एतत् तत्र अस्ति पतञ्जलियोगसूत्रम् इति वा तत्र
आं महोदय समाधिपाद त्रिंशत्तमं सूत्रम्
अस्तु भगिनि धन्यवादः अस्तु अतः तत्र प्रमादः इति इदानीं तस्य पदस्य अर्थः स्पष्टः अस्ति धन्यवादः भगिनि अस्तु समीचीनं
तत्र प्रमादः इत्युक्ते एतदपि वक्तुं शक्यते मनसः दुर्बलता महोदय शरीरस्य दुर्बलता आलस्यः परन्तु
आलस्यम् अस्तु अस्तु
मनसः दुर्बलता यत् अस्ति तत् प्रमादः इति
प्रमादः इति तदपि समीचीनमेव अस्ति अस्तु समीचीनम् अस्ति अतः तत्र किम् एतत् सर्वं तत्र पतञ्जलियोगसूत्रात् स्वीकृतमस्ति वा न प्रायः न गीता भगवद्गीताया याः एव स्वीकृतम् इति मन्ये किन्तु तत्र
बहवः अर्थाः सन्ति
सत्यम् अस्तु अस्तु तर्हि इदानीं द्वितीय अभ्यासं कुर्मः धन्यवादः
द्वितीयाभ्यासे ऋते शब्द प्रयुज्य वाक्यं रचनां करोमि
रचयामः
त्यागात् ऋते मुखं सुखं
त्यागात् ऋते
सुखं नास्ति असत्यं द्वितीय अस्ति भक्तिः ज्ञानम् इत् द्वे शब्दे उपयुक्तुं ऋते भक्तेः भक्तेः पञ्चमी विभक्ति भक्तेः ऋते ज्ञानं नास्ति
भक्तेः ऋते ज्ञानं नास्ति अस्तु समीचीनं भगिनि अस्तु शोभा भगिनि अग्रे
महोदय संस्कृतिः संस्कृतं संस्कृतिः इति स्त्रीलिङ्गे मतिः शब्दवत् संस्कृत्याः न न पञ्चमी संस्कृत्याः एव भवति किल
संस्कृते
द्वे अस्ति किल तत्र
रूपद्वयं
भवितुम् अर्हति
मतेः
मत्याः इति संस्कृत्याः अथवा संस्कृतेः ऋते संस्कृतं संस्कृतेः ऋते संस्कृतं न भवति इति अत्र महोदय पूर्वस्मिन् प्रमादः इत्यस्मिन् किञ्चित् वदामि तत्र पदं तु मद् इति धातोः आगतः मद् मद् अस्ति चेत् तत्र
आनन्दः इति
न न न मद् इति किं मद अस्ति किल महोदय तेन मद अस्ति चेत् तेन अपराधानि भवन्ति एरर्स् मिस्टेक्स् अवधानं नास्ति इति तेन सर्वाणि अर्थानि वयं दृष्टवन्तः सर्वे भवन्ति इति भवति इति मन्ये महोदय
सत्यं सत्यं भगिनि अस्तु अस्तु अस्तु
प्रथमतया तत्र अवधानं
यदस्ति तत्र तद् भवति वक्तुं तत् मदः मदं
मद् भावे प्रयोगः कृतम् अस्ति महोदय अतः बहूनि अर्थानि
उन्मत्तः वा मदः इति
उन्मत्तः इति धन्यवादः भगिनि मत्तः मत्तः अपि मद् इत्यनेन एव आगच्छति किल मत्तः मत्तः भवति चेत् प्रमादः
समीचीनं समीचीनं भगिनि अस्तु तत्र प्र इति उपसर्गेण तत्र केवलम् अर्थ तत्र अर्थस्य किं वर्धनं भवति न तु
आं महोदय इति मन्ये
अस्तु भगिनि अस्तु समीचीनं अस्तु तत् समीचीनं तत् समीचीनमस्ति तत्र सावधानं किमर्थं नास्ति चेत् तत्र मदः अस्ति इति तत्र मदम् अस्ति इति कृत्वा इति अस्तु
तत्र मद् इति इत्यस्य अर्थः अपि भिन्नरीत्या भवितुम् अर्हति इति मन्ये तत्र तु अर्जुनस्य कृते एतानि सर्वाणि दत्तं किल बोधनाय तत्र मदेन भवति इति अपि अर्थं भवति इति मन्ये महोदय
अस्तु भगिनि धन्यवादः समीचीनम् अस्तु धन्यवादः भगिनि अस्तु लक्ष्मी भगिनि अग्रे
ईश्वरानुग्रहात् ऋते कार्यसिद्धिः न भवति
ईश्वरानुग्रहात् ऋते कार्यसिद्धिः
न भवति
अस्तु समीचीनम् अहमद् महोदय
निद्रा कृते संस्कृतकार्यं करोति
तत्र कुत्र अस्ति महोदय भवानेव उक्तवान् वा अस्तु समीचीनं वदतु महोदय पुनः
निद्रा कृते संस्कृतकार्यं कारयेत्
संस्कृतकार्यं करोतु निद्रात्ते संस्कृतकार्यं निद्रात् तत्र निद्रात् विना इति प्रायशः तत्र निद्रात् ऋते इति तत्र अत्र ऋते इति तत्र गतवर्गे अपि तस्मिन् विषये तत्र किञ्चित् तत्र चर्चा आसीत् तत्र ऋते इति अस्मिन् पुस्तके तत्र विना इत्यर्थे स्वीकृतम् अस्ति किन्तु सर्वदा तादृशः अर्थः नास्ति अतः तत्र विना इति अपि स्थापितुं शक्नुमः इति अस्मिन् पुस्तके एतादृशचिन्तनम् अस्ति अस्तु महोदय तत्र यत् दत्तमस्ति तम् उपयुज्य एकं वाक्यं करोतु महोदय चतुर्थे पुटे पश्यति खलु तत्र गीतासोपने द्वितीयभागे कृष्णः गोपिका धर्मः धर्मराजः प्रयत्नः कार्यसिद्धिः अस्तु किञ्चित् अनन्तरं वदतु महोदय तर्हि
त्यागात् ऋते सुखं न भवति
त्यागात् ऋते
सुखं न भवति
अस्तु महोदय अस्तु समीचीनम् अस्तु धन्यवादः महोदय अस्तु वंशीश्वर भगिनी अग्रे
महोदय
कृष्णात् ऋते गोपिका नास्ति वा? कृष्णात् ऋते गोपिकाः न सन्ति
अथवा गोपिकाः
अर्थः
जीवन्ति
न जीवन्ति न जीवन्ति तत्र के सर्वदा सन्ति इति अथवा नास्ति इति किमपि कोऽपि नियमः नास्ति केवलं तत्र ऋते उपयुज्य वाक्यं रचनीयमस्ति भगिनि कृष्णात् ऋते
कृष्णात् ऋते गोपिकाः अस्तित्वम् एव नास्ति
तत्र सुखं न अनुभवन्ति दुःखिताः गोपिका दुःखिता भवति
दुःखिता भवति अस्तु
अथवा तादृश किमपि
तत्र विना अपि उपयोगं कर्तुं शक्यते किल
अस्तु भगिनि सत्यं भगिनि तत्र अतः तत्र पुस्तके अस्मिन् पुस्तके ऋते इत्युक्ते विना इति स्वीकृतमस्ति भगिनि तद् पूर्णतया समीचीनं नास्ति किन्तु एतत् अस्मिन् पुस्तके स्वीकृतम् अस्ति अतः विना इत्यर्थे एव वयं तत्र
किमर्थम् इत्युक्ते व्यावहारिके सर्वे तु विना एव उपयोगं कुर्वन्ति ऋते ऋते इत्यस्य उपयोगः विरलतया भवति इति अहं
अतः तत्र तदेव स्वीकुर्मः अतः तत्र कृष्णेन विना तत्र गोपिका
हा कृष्णात् विना अपि वक्तुं शक्यते
कृष्णात् विना इति तावत् अस्तु शुभदा भगिनी अग्रे अस्तु गीताञ्जलि भगिनि
आं महोदय धर्मात् ऋते धर्मराजः को कार्यम्
किमपि न करोति
किमपि न करोति
किमपि न कर्तुं शक्यते धर्मरहितकार्यं धर्मराजः न करोति
अहं करोमि वा
अस्तु इदानीं करोतु भगिनि
एकाग्रता लक्ष्यप्राप्तिः पञ्चमी विभक्तिः खलु एकाग्रतायाः ऋते एकाग्रतायाः ऋते लक्ष्यप्राप्तिः न भवति
हा लक्ष्यप्राप्तिः न भवति समीचीनं भगिनि एकाग्रतायाः ऋते लक्ष्यप्राप्तिः न भवति समीचीनं समीचीनम् अस्तु नरेश महोदय
आं महोदय प्रयत्नः कार्यसिद्धिः पञ्चमी विभक्तिप्रयत्नात् प्रयत्नात् ऋते कार्यसिद्धिः न भवति
अस्तु समीचीनं ललिता भगिनि
धर्मात् ऋते हरिश्चन्द्रः न जीवति
धर्मात् ऋते हरिश्चन्द्रः न जीवति समीचीनम् उषा भगिनि
आं महोदय कृष्णात् ऋते पाण्डवानां जयः न भवति
कृष्णात् ऋते पाण्डवानां जयः न भवति समीचीनम् अस्तु अस्तु तर्हि तत्र अभ्यासद्वयम् अस्मिन् विषये कृतवन्तः इदानीं तत्र अग्रे अस्ति तत्र पूर्वः परः अपि सदृशः तत्सर्वं तत् अग्रिमे वर्गे कुर्मः इदानीं तत्र एका कथा अस्ति तां कथां पठामः अद्य तत्र सर्वेषां पार्श्वे अस्ति वा एषा कथा तत्र ईमेल् द्वारा प्रेषितम् अस्ति तत्र एतत्तु तत्र बालमोदिनी इति भवति तत्र सम्भाषणसन्देशः संस्कृतभारत्याः पत्रिका
क्षम्यतां महोदय अहं पञ्चनिमिषात् अनन्तरम् आगच्छामि महोदय
अस्तु भगिनि अस्तु तर्हि तत्र पुत्रात् ख्याता इतरा इति कथा अस्ति कथायाः शीर्षकः पुत्रात् ख्याता इतरा इति
महोदय अस्मिन् मासस्य वा
नवम्बर् मासस्य
नवम्बर् मासस्य वा
किन्तु तत्र लिङ्क् अपि मया प्रेषितमस्ति भगिनि,
मम गृहे आगच्छति.
अस्तु भगिनि, अस्तु अस्तु, अतः तत्र अस्तु, अस्तु, तत्र पुटसङ्ख्या अस्ति 28. अस्तु भगिनि, हा समीचीनम्. अस्तु तर्हि तत्र मधु महोदय आरम्भं करोति वा महोदय.
बालबोधने मण्डूकिमुनेः पत्नी इतरा, तयोः पुत्रः महीदासः तु सर्वदा द्वादशाक्षरीमन्त्रं पठन् लौकिककर्मसु अनासक्तिं
वहति स्म.
एतस्मात् खिन्नः माण्डूकमुनिः पिङ्गनामिकाम् अन्यां परिणीतवान्. पिङ्गायां चत्वारः पुत्राः जाताः. ते वेदाध्ययनं कृत्वा यज्ञादीन् निर्वहन्तः. पिता इव ख्यातिं
गताः. समीचीनं महोदय, अस्तु. अग्रे श्रीप्रिया भगिनी.
आं महोदय, महीदासे इतरायां च माण्डूकिमुनेः अनादरः प्रवृद्धः, अतः खिन्ना इतरा आश्रमं परित्यज्य गतवती, पुत्रेण सह अन्यत्र वासम् आरब्धवती च. तथापि पुत्राय उत्तमसंस्काराणां दाने सा प्रवृत्तिं तु न परित्यक्तवती.
हा समीचीनं भगिनि, धन्यवादः. अस्तु अग्रे, हा गीताञ्जलि भगिनि.
कदाचित् महीदासस्य जपेन सन्तुष्टः विष्णुः तस्य स्वप्ने प्रत्यक्षीभूय, भोः वत्स, त्वं तु जीवन्मुक्तः असि, तथापि जनन्याः इष्टार्थस्य पूर्णं तव कर्तव्यम्.
तव कर्तव्यम्
गुरूपदेशं विना एकसकलवेदवेदाज्ञानं तव भविष्यति इति उक्त्वा अन्तर्हितः अभवत्.
समीचीनं भगिनि, अस्तु. अग्रे शुभदा भगिनि.
ततः महीदासः नाममात्रेण गुरुकुले किञ्चित् कालं वासं कृतवान्. ततः वेदवेदाङ्गादिज्ञानं तेन सम्पादितम्. ऋग्वेदभाष्यं, कर्मकाण्डबोधकं, ब्राह्मणग्रन्थं च सः विरचितवान्. तस्य आधारेण सः राज्ञः हरिमेधसः द्वारा यज्ञं कारितवान्. तदीयं वैदुष्यं दृष्ट्वा सन्तुष्टः राजा हरिमेधाः तस्मै प्रभूततया सुवर्ण दक्षिणादिकं दत्तवान्. स्वकन्या अपि तस्मै दत्ता तेन.
हा समीचीनं भगिनि. अस्तु अग्रे नरेश महोदय.
महोदय, महीदासः ततः प्रतिगत्य प्रवृत्तं सर्वं निवेद्य मातरं नमस्कृतवान्. पुत्रस्य अभ्युदयं दृष्ट्वा इतरा नितरां सन्तुष्टा अभवत्. पुत्रादीन् प्राप्य महीदासः उत्तमं गार्हस्थस्य
गार्हस्थ्यजीवनं
यापितवान्.
अग्रे अपि तत्र कृतवती इति तावत् पठतु महोदय.
तेन विरचितः ब्राह्मणग्रन्थः महीदास ब्राह्मणत्वेन ख्यातः जातः. तदा महीदासः अवदत्, मम माता प्रतिकूलस्थितौ अपि मम पोषणं कृतवती.
हा धन्यवादः महोदय. हा अस्तु अग्रे ललिता भगिनी.
हा वदामि. कृतवती पत्युः उपेक्षाम् अनुभवन्ती अपि यं सत्संस्काराणां दाने बद्धातरतां दर्शितवती. एतादृशीं मातृत्वेन प्राप्तवान् अहं धन्यः. अतः इतः परं मया रचितः ब्राह्मणग्रन्थः एतरेग्रब्राह्मणत्वेन एतरेयब्राह्मणत्वेन निर्दिष्टः भवतु. तन्नाम्ना च जनाः मम मातुः श्रेष्ठतां जानन्तु इति.
समीचीनं भगिनि. अग्रे उषा भगिनी.
ऐतरेय किल महोदय? ऐतरेय
ऐतरेय नु या इति ऐतरेय.
क्षम्यताम् ऐतरेय. क्षम्यतां.
ऐतरेय. धन्यवादः.
तस्मात् दिनात् स च ब्राह्मणग्रन्थः ऐतरेयब्राह्मणत्वेन निर्दिश्यमानः जातः. स च ग्रन्थः त्यागमय्याः वात्सल्यमय्याः स्वाभिमानवत्याः च इतरायाः चरित्रं स्मारयति अद्यापि.
स्मारयति. धन्यवादः. अस्तु अस्तु. अतः तत्र
एतत् ऐतरेयोपनिषद् वा महोदय?
सत्यं भगिनि. तत्र तत्र ऐतरेयः इति किमर्थम् एतादृशनाम इति एषा कथा वदति. अतः तत्र इतरा इति महिला, तस्याः पुत्रः महीदासः, तेन कृतम् इतरा इति नाम अस्ति तस्य. इतरा इति नाम. अस्तु समीचीनम्. अस्तु तर्हि तत्र अस्तु. इदानीं तत्र वेदा भगिनी तत्र किञ्चित् आरम्भतया किञ्चित् वदति वा भगिनी, तत्र किं किम् अस्ति इति. माण्डूकी मुनेः इति.
एकनिमिषं महोदय. माण्डूकी मुनेः पत्नी इतरा. माण्डूकी मुनि अस्ति. तस्य पत्न्यां नाम इतरा अस्ति. तस्य पत्नी इतरा.
माण्डूकी मुनेः इति विभक्ति का तत्र?
माण्डूकी मुनेः षष्टिविभक्ति.
षष्टिविभक्ति. तस्य पत्नी इतरा.
तयोः पुत्रः महीदासः. महीदासः तयोः पुत्रः. तयोः अत्र अपि षष्टिविभक्ति. तयोः पुत्रः द्विवचनं.
तत्र इतरायाः माण्डूकी मुनेः
पुत्रस्य नाम महीदासः.
तस्य नाम महीदासः.
महीदासः तु सर्वदा द्वादशाक्षरिमन्त्रं पठन् लौकिककर्मसु अनासक्तिं वहति स्म. महीदासः तु सर्वदा महीदासः द्वादश अक्षरे द्वादश अक्षरि मन्त्रं जपति जपन् करोति करोति किं
तत्र जपन् जपन् एव भवति सः सर्वदा तस्य जपमेव कुर्वन् अस्ति अथवा कुर्वन् आसीत् पठन् आसीत्
लौकिककर्मसु लौकिककार्ये अनासक्तिं वहति स्म अनासक्तिम् इत्युक्ते कापि न करोति वा
हा तत्र आसक्तिः नास्ति तस्य आसक्तिः
रुचिः नास्ति
हा आसक्तिः हा तत्र रुचिः तत्र एतत् कर्तुं सः न इष्टवान्
न इष्टवान् लौकिककर्म कोऽपि लौकिककर्मसु
तत्र लौकिककर्मसु इत्युक्ते तत्र लौकिक इत्युक्ते तत्र दैनन्दिन वा तत्र अग्रेपि तत्र दत्तं अग्रेपि तत्र दत्तमस्ति तत्र कृत्वा यज्ञाधीन् निर्वहन्तः इति तत्र अग्रे आगच्छति तदपि सः न करोति स्म
कर्तुमिच्छति इतस्मात् खिन्नः
अस्तु तत्र कर्मसु इति अस्ति तत्र विभक्तिका
पञ्चमी बहुवचनं
पञ्चमी न
अनासक्तिमति स्म एतस्मात् खिन्नः माण्डूकमुनिः पिङ्गानामिकाम् अन्यां परिणीतवान् एतस्मात् पुत्रस्य व्यवहारे अतृप्तः माण्डूकमुनिः
पिङ्गानामिकात् अतृप्तः
पुत्रस्य व्यवहारात् खिन्नः माण्डूकमुनिः पिङ्गानामिकाम् एकम् परिणीतवान्
हा एकाम् अन्यां महिलां परिणीतवान्
परिणीतवान् और्
किं अथया विवाहं कृतवान्
विवाहं कृतवान् पिङ्गायां चत्वारः पुत्राः जाताः पिङ्गायाः
कति पुत्राः सन्ति
चत्वारः पुत्राः
आसन्
ते वेद अध्ययनं कृत्वा यज्ञादीन् निर्वहन्तः पिता इव ख्यातिं गताः सर्वे चत्वारः पुत्राः सर्वे वेद अध्ययनं कृत्वा यज्ञादि निर्वहन् पिता एव ख्यातिं प्राप्तः
पिता इव प्राप्ति
ख्यातिम् इत्युक्ते किं वदति ख्यातिम् इत्युक्ते प्रसिद्धिम्
ते अपि प्रसिद्धाः अभवन् तत्र निर्वहन्त इति रूपं किमस्ति
निर्वहन्तः शत्रुन्त
बहुवचनं समीचीनं एकवचने किं भवति
निर्वहन्
पठन् इति पूर्वम् आसीत् तादृशम् अत्र निर्वहन् अपि यज्ञाधीन् इति विभक्तिका तत्र
यज्ञाधीन् लैक् यज्ञ आदीन्
तत्र बहुवचने तत्र यज्ञादीन् कर्मपदं द्वितीयविभक्ति समीचीनं भगिनि अस्तु अपि
महोदय तत्र पिङ्गायाम् इति किमर्थं पिङ्गायाः इति वक्तुं शक्यते किल
तत्र पिङ्गायाः अस्ति चेत् तत्र चत्वारः पुत्राः सन्ति इति वदामः खलु तदेव अर्थः खलु तत्र
किन्तु
तत्र तस्याः चत्वारः पुत्राः इति न दत्तमस्ति किं दत्तमस्ति तस्यां चत्वारः पुत्राः जाताः इत्युक्ते सा जननी अस्ति
अस्तु
चत्वारः पुत्राः ये सन्ति तेषां जननी अस्ति सा इति
किमर्थं सप्तमी आयाति महोदय
तत्र गर्भे तत्र तस्याः गर्भे
अतः
तत्र तादृश अर्थः इति
लैक् यु नो प्रोड्यूस्
प्रसूतवती इति अतः तत्र पिङ्गायां ते पुत्राः जाताः इति, किन्तु तस्याः चत्वारः पुत्राः इति अपि तद् समीचीनमेव. अपि गताः, गताः इत्युक्ते तत्र ख्यातिं गताः, तस्यां स्थितौ अथवा तां स्थितिं प्राप्तवन्तः. कां स्थितिं? ख्यातिः इति स्थितिं प्राप्तवन्तः इत्युक्ते ते प्रसिद्धाः अभवन् इति.
महोदय, तत्र अनासक्तिः तत्र दत्तं, लोककर्मसु अनासक्तिः,
लौकिककर्मसु,
लौकिककर्मसु अनासक्तिः, अपि च लौकिककर्मे अनासक्तिः भवितुमर्हति महोदय?
हा, तत्र केवलं लौकिककर्म इति कर्म तु एकमेव कर्म इति नास्ति खलु भगिनि.
तत्र
हा, तत्र लौकिकविषये अथवा विषयेषु तादृश, अतः तत्र बहुवचने एव समीचीनम् इति. अतः
महोदय, अन्यः प्रश्नः, जाताः तत्र क्रियापदं किम् अस्ति महोदय?
जाताः तत्र, जाताः इति तत्र जाताः आसन् इति, तत्र गत्या, तत्र भवती जानाति खलु तत्र, तत्र गत्यार्थक
धातु
न गत्यार्थकः अस्ति चेत् तत्र किं भवति, तत्र त प्रत्ययस्य साधारणतया कर्म कर्मरूपं भवति तत्र पठितम् इति, किन्तु अत्र कर्तृते अस्ति जातः गताः, यथा गताः अस्ति खलु, तादृश एव रूपं, तादृशं रूपमेव जाताः इति. तत्र जाताः इत्युक्ते तत्र कर्तृते अस्ति, तत्र पुस्तकं पठितम् इति, पठितम् इति पठितं पुस्तकं तत्र कर्मपदं सूचयति.
आं महोदय,
किन्तु अत्र कर्तृपदं सूचयति, अतः अतः विशेषणं भवति कर्तृपदस्य. के जाताः? पुत्राः जाताः.
पुत्राः जाताः,
हा, तत्र मम गृहे तत्र अहम् अतिथिम् अतिथेः प्रतीक्षां कुर्वन् अस्मि, इदानीम् एकः अतिथिः आगतः अस्ति, तत्र आगतः अथवा गतः, तादृश एव तत्र जातः अपि भगिनि.
अस्तु,
अतः तत्र कर्त अर्थे अस्ति, हा, केचन धातवः सन्ति गत्यार्थकदातवः, तत्र
तस्मिन् जन् अपि अस्ति वा महोदय, न जानामि, अस्तु पश्यामि.
हा, तत्र द्रष्टव्यं, किन्तु एतत् तु हा अत्र तु भवति खलु.
आम् अस्तु
अस्तु, तर्हि अग्रे गच्छामः. हा, इदानीं शोभा भगिनी अग्रे.
आं महोदय, महीदासे इतरायां च माण्डूकिमुनेः अनादरः प्रवृद्धः. तत्र महीदासे इतरायां च, तत्र महीदासः, महीदासम् इतराम् इतरायां, महीदा तत्र तु सप्तमी, किन्तु महीदासम् इतरां च प्रति मण्डूकमुनिः आदरं न प्रदर्शयति, आदरं क्षीणः भवति, अनादरं करोति.
हा, अनादरम्, अनादरः प्रवृद्धः, तत्र तस्य वर्धनम् अनादरः अस्ति, अपि तस्य दिने दिने तस्य अनादरस्य वर्धनं भवति, तत्र अनादरः प्रवृद्धः. तत्र प्रवृद्धः किं भवति, विशेषणं भवति कस्य पदस्य?
अनादरः,
अनादरस्य,
अनादरस्य
कस्य अनादरः?
महीदासः अपि च इतरा,
न कस्य अनादरः, कस्य अनादरः?
माण्डूकिमुनेः अनादरः.
हा, माण्डूकिमुनेः अनादरः. हा, कस्मिन् विषये, कस्मिन् विषये अनादरः?
ते महीदासः तु किमपि लौकिककर्मसु आसक्तिः एव न प्रदर्शयति, अपि च इतरायाः पुत्रः इति
तस्य तस्याः उपरि अपि
तस्याः उपरि अपि अनादारः
अनादारः सः अनादारम् अनादारः भवति समीचीनम् जायते अनादरः अथवा अभवत् इति आसीत् समीचीनं भगिनि
अनादरः सर्वदा सप्तमी योजयित्वा वक्तव्यं
तत्र अनादरः कुत्र अस्ति तत्र विश्वासः तत्र निपुणता इति तादृश अर्थे भगिनि हा सत्यं तस्मिन् विषये इति तावदेव तत्र कुत्र इति सप्तमी इति सप्तमी प्रायशः सर्वदा इति न जानामि भगिनि किन्तु तादृशप्रयोगः दृश्यते
तत्र महोदय प्रति इत्यस्य प्रयोगं कर्तुं शक्नुमः किल तत्र महीदासम् इतरां च प्रति माण्डूकी मुनि
प्रति अनाधार अस्तु अनाधारं सत्यं सत्यं तस्य किन्तु
माण्डूकमुनिः अनाधारम्
अनाधरं प्रदर्शितवान् इति अनाधरं प्रदर्शितवान् तदपि समीचीनमेव सत्यं भगिनि अतः तत्र अग्रे
अतः खिन्ना इतरा आश्रमं परित्यज्य गतवती पुत्रेण सह अन्यत्र वासम् आरब्धवती च अतः एतेन वर्तनेन अनादरेण इतरा दुःखम् अनुभवति अपि च तेन कारणेन पुत्रेण सह आश्रमं परित्यज्य अन्यत्र गच्छति अपि च तत्र
आश्रमं त्यजति त्यक्त्वा
अन्यत्र पुत्रेण सह अन्यत्र गत्वा तत्र वासनं तु नास्ति तत्र वसति तत्र ल्युडन्तं किं भवति महोदय वासनं वा न वसति
निवसति किल तत्र
न किन्तु ल्युडन्तं किम् अस्ति
न वासं लुडन्तं न भवति किल वासं
लुडन्तं नपुंसकलिङ्गे नपुंसकलिङ्गं
ओ अस्तु अस्तु अस्तु
तत्र वासं
आरब्धवती
वासमेव अस्ति
तत्र वासमेव अस्ति किन्तु लुडन्तं मम वासम् इति चिन्तितवती
घै प्रत्यय अस्ति वा तत्र
न जानामि इदानीं वासम् अथवा तत्र
महोदय वसनम् अस्ति महोदय
वसनम् अस्तु
वसनं वसनम् आरम्भं करोति कृतवती तथापि पुत्राय उत्तमसंस्काराणां दाने सा प्रवृत्तिं तु न परित्यक्तवती यद्यपि इतरा बहु दुःखे अस्ति तथापि पुत्रस्य स्वस्य दुःखिता अस्ति तथापि स्वस्य पुत्रस्य कृते उत्तमसंस्कारं दातुं सा न
तस्याः पुत्राय किं दातुम्
उत्तमसंस्कारं दातुं
उत्तमसंस्कारं दातुं
सा न तत्र अलक्ष्यं न कृतवती
अलक्ष्यं तत्र तत्र प्रमादं न कृतवती
उत्तमसंस्कार दातुं प्रयत्नं कृतवती
न प्रयत्नं कृतवती इति न भवति भगिनी, सा सर्वदा तदेव कुर्वन्ती आसीत्, सर्वदा तस्मै उत्तमसंस्कारं दातुं सर्वदा सा प्रयत्नं कुर्वन्ती आसीत्, इदानीमपि सा तदेव करोति, इदानीमपि तत्र स्थितेः परिवर्तनम् अभवत्, सा एकाकी अस्ति इदानीम्, आश्रमे नास्ति, पतिः नास्ति, किन्तु
दुःखिता अपि अस्ति, बहु
दुःखिता अपि अस्ति, किन्तु हा किन्तु एतत् सा न त्यक्तवती, तस्मिन् एतस्मिन् विषये सा अलक्ष्यं तत्र तत्र अलक्ष्यं न कृतवती, सावधानम् इदानीमपि आसीत् तस्याः अस्मिन् विषये, अतः तत्र इदानीम् आरब्धम् इति न, पूर्वमपि आसीत् इदानीमपि अस्ति, अतः तत्र सा प्रवृत्तिं तु न परित्यक्तवती, त्यक्तवती इत्युक्ते पूर्वम् आसीत् इदानीं तत् न त्यक्तवती,
सदैव कटिबद्धा आसीत्,
हा तत्र एतत् मया करणीयम् एव इति
कटिबद्धा इति उच्यते,
तत्र एतत् मया कर्तव्यम्,
स्थितप्रज्ञः अपि भवितुम् अर्हति वा महोदय?
स्थितप्रज्ञा
किमपि
सत्यं भगिनि, हा स्थितप्रज्ञा,
स्थितप्रज्ञा इस् न सुखं न सुखम् इन् एनी परिस्थिति,
तत्र अस्मिन् विषये तस्याः स्थितिः तत्र तत्र भेदः किमपि नास्ति, परिवर्तनं किमपि नास्ति, लौकिकप्रसङ्गः भिन्नं भवेत्,
तत्र तस्याः विवेकं न गतम्
इति, अस्तु इति अस्तु, इदानीं तत्र उत्तरायाः स्थितिं वयं सर्वे अवगच्छामः, अस्तु
किं महोदय?
इतरायाः स्थितिं वयं सर्वे अवगच्छामः
महोदय, नूतनस्थान तु अन्य भ्राता न अस्ति अपि, पिङ्गा अपि न जाते,
न तत्र किम्, ओ तस्याः भ्राता इति कोऽपि नास्ति इति वा? हा तत्र अत्र किं तत्र अत्र न दत्तं सा कुत्र गतवती इति, किन्तु केवलम् अन्यत्र गतवती इति,
तस्य पिङ्गाया चत्वारः पुत्राः जाता, अधुना तु इतरा अपि महीदास एव नूतनस्थान गतवन्तौ, अन्यतु न तेन सह,
किमर्थं चेत् तत्र केवलं महीदासे अपि इतरायाम् एव तत्र माण्डूकी मुनेः अनादरः आसीत्, अन्येषु पुत्रेषु तस्य आदरः आसीत् खलु, तत्र ते ख्यातिं प्राप्तवन्तः इति, तत्र तस्य
तेषां माता भिन्ना भिन्ना अस्ति,
अतः तत्र पिङ्गायाः पुत्राः ये सन्ति तेषु तु माण्डूकी मुनेः आदरः एव अस्ति, न तु अनादरः,
तदैव तिष्ठति ते,
तत्र ते सन्ति, किन्तु केवलम् इतरा अपि तत्र महीदासः एतौ तत्र तत् आश्रमं त्यक्त्वा अन्यत्र गतवन्तौ,
महोदय ते किमपि सहायं न कृतवन्तः,
सत्यं पिङ्गा वा अथवा चत्वारः पुत्राः ते किमपि न सहायं कृतवन्तः. सत्यं भगिनि, हा इति इति अस्ति. हा अस्तु.
अपि च जातः वयं चर्चां कृतवन्तः. जातः इति जनि जन् जनि प्रादुर्भावे धातुः अस्ति भगिनि, वंशीसुधा भगिनि.
हा अस्तु, सपृष्टवती. अस्तु,
धन्यवादः. जनधातु प्रादुर्भावे, तस्य त प्रत्ययः भवति.
जातः.
अस्तु, समीचीनम्.
अतः कर्तरी किमर्थं महोदय, कर्मणि एव प्रयुज्यमानं?
न न, कर्त्री एव अस्ति तत्र. पुत्राः इति पदस्य विशेषणं, पुत्राः जाताः.
प्राप्तं महोदय. श्लीङ् श्लीङ् स्था आ स्वस् जन् रुह् जीर्यतयः
इति वा. अस्तु, तत्र प्रेषयतु भगिनि, चाट् मध्ये प्रेषयतु.
आम् आं प्रेषयामि
यदि सौकर्यम् अस्ति चेत्. हा अस्तु अस्तु. शोभा भगिनी, अग्रे भगिनि.
आम् महोदय. कदाचित् न परित्यज. अस्तु. कदाचित् महीदासस्य जपेन सन्तुष्टः विष्णुः तस्य स्वप्ने प्रत्यक्षीभूय, भोः वत्स, त्वं तु जीवन्मुक्तः असि. तत्र यथा महीदासः विष्णोः भक्तः एव आसीत्, अपि च नितरां तस्य जपं कृतवन् आसीत् तेन सन्तुष्टः विष्णुः तत्र प्रत्यक्षम् आगत्य तस्य सम्मुखं वा महोदय, समक्षं
वा, समक्षं तत्र अनेकः सन्ति खलु तत्र. स्वप्ने इति अस्ति, किन्तु
स्वप्ने अस्ति,
प्रत्यक्षः इति अस्ति.
प्रत्यक्षम् अपि अस्ति. तत्र तं वदति, वत्स, त्वं तु जीवन्मुक्तः असि, तत् किं तत्र परिवर्तनं किमपि न करोमि महोदय.
तत्र किमपि नास्ति, तत्र जीवन्मुक्तः त्वम् असि इति. अस्तु, समीचीनं भगिनि. अस्तु, तावत् पर्यन्तम्. अस्तु, धन्यवादः भगिनि.
प्राप्तिः भवति जीवनार्थ प्राप्तिः भवति
किं भगिनि?
जीवनेन मुक्तिः भवति.
जीवनेन इति न भगिनि,
जीवनात्
जीवनात् अपि न, जीवन्मुक्तः इति तत्र भिन्नार्थः अस्ति. तत्र जीवने एव मुक्तिः प्राप्तं, तत्र मरणान्तरं मुक्तिः इति न, जीवने एव सजीवने एव मुक्तिः.
अन्यजन्मं नास्ति तस्य.
हा तदपि तदपि. हा सत्यं सत्यं
महोदय. प्रत्यक्षीभूय कीदृशपदम् अस्ति महोदय?
भूत्वा इति, प्रत्यक्षी भूत्वा इति.
लेबन्त
प्रत्यक्षी
प्रत्यक्षीभूय समस्तपदम् इति भाति तत्र.
प्रत्यक्षीभूय
किञ्चित्. अस्तु भगिनि, तत्र किञ्चित् चिन्तनं कर्तव्यमस्ति भगिनि, इदानीं न जानामि. किन्तु प्रश्नः तु समीचीनः एव, प्रत्यक्षीभूय इति.
तत्र यथा भवती उक्तवती प्रति अक्षीभूय, अक्षुः इति प्रति अक्षीभूय इति वा महोदय तत्र.
हा किन्तु तत्र तत् उपसर्गः न भवति खलु भगिनि, तत्र अक्षी इति, अतः तत्र ज्ञपन्तं वा इति किञ्चित् मम मनसि क्लेशः अस्ति. अस्तु, दृष्ट्वा अग्रिमवर्गे चर्चयामः. अस्तु, हा लक्ष्मी भगिनि, तत्र केवलं तत्र वाक्यद्वयम् अस्ति, तत् पठतु भगिनि, तथापि इति. लक्ष्मी भगिनि, अस्तु नास्ति वा? अस्तु अस्तु, शुभो भगिनि, अतः भवती एव तत्र. अस्तु अस्तु, लक्ष्मी भगिनि पठतु. अस्तु,
भोः वत्स, त्वं तु जीवन्मुक्तः असि, तथापि जनन्याः इष्टार्थस्य पूरणं तव कर्तव्यं. गुरुपदेशं विना एव सकल वेदवेदाङ्गज्ञानं तव भविष्यति इति उक्त्वा अन्तर्हितः अभवत्.
तत्र तथापि जीवन्मुक्तः अस्ति
तथापि जनन्याः इष्टार्थस्य पूरणं तव कर्तव्यं भवतः कर्तव्यं.
किं कर्तव्यं?
मात्रा मातुः
इष्टार्थम् इष्टार्थः तस्य पूरणं तव करणीयम् एव कर्तव्यमेव. अग्रे
गुरूपदेशं विना एव सकलवेदवेदाङ्गज्ञानं तव भविष्यति.
तत्र साधारणतः किम् अस्ति, गुरोः उपदेशम् आवश्यकं विना
सः वेदवेदाङ्गज्ञानं प्राप्तवान्.
प्राप्स्यति इति तत्र भगवान् उक्तवान्. तत्र भवतः तादृश भवति, तत्र गुरु उपदेशम् अथवा गुरु उपदेशेन विना अथवा गुरु उपदेशात् विना एव सकल केवलं तत्र सकल केवलं एकस्य एकवेदस्य ज्ञानमिति न, तत्र सकलवेदवेदाङ्गज्ञानं तव भविष्यति इति उक्त्वा अन्तर्भूतः अभवत्. अस्ति, अस्तु अस्तु, समीचीनम्. अतः तत्र सर्वे कथम् अवगच्छन्ति इति मन्ये, किन्तु स्वारस्या कथा अस्ति खलु एषा, ऐतरेय उपनिषद् इति. तत्र तस्य नामकरणं किमर्थमिति तत्र बहु समीचीन अस्ति इति मन्ये. अस्तु, तर्हि समयः अपि जातः, अग्रिमवर्गे एतद् एतां कथां समापयित्वा अग्रे गच्छामः.
महोदय, तत्र अक्षीभू इति पदम् अस्ति महोदय,
अक्षीभू इति अस्ति वा,
भवति वा महोदय,
अतः अक्षीभूय इति भवति अहं चिन्तयामि.
अस्तु भगिनि,
लिट्ल कारः वा
न, तत्तु न च, अक्षीभू इति पदम् अस्ति.
अस्तु भगिनि, अस्तु.
प्रत्यक्षी इति अपि अस्ति महोदय, प्रत्यक्षी इति एव पदम् अस्ति दीर्घ इकारान्त, तत्र प्रत्यक्षिन् इति प्रातिपदिकं त्रिषु लिङ्गेषु भवति, प्रत्यक्षः प्रत्यक्षी प्रत्यक्षं प्रत्यक्षम् अस्ति इति अर्थे महोदय, इनि इनि प्रत्यक्षति प्रत्यक्षी महोदय, प्रतीक्षी न, प्रत्यक्षी एव अस्ति, प्रत्यक्षी भूय. तत्र उपसर्ग प्रति इति अस्ति किल महोदय,
उपसर्ग अस्ति किन्तु तत्र धातोः उपसर्ग नास्ति खलु, तत्र भू इति धातुः अस्ति, भू इति धातुः अस्ति, तत्र भू इति धातोः उपसर्गः तत्र किम् अस्ति,
तत्र समस्तपदं भवति चेत् प्रा इति उपसर्ग अन्वयति वा,
तत्र किञ्चित् द्रष्टव्यम् अस्ति
महोदय. स्पोकन् संस्कृत् मध्ये अस्ति प्रत्यक्षीकृ अस्ति, मेक् विसिबल् आर् एविडेण्ट्, प्रत्यक्षीकरोति, प्रत्यक्षीकरोति कृ धातु अस्ति, अण्ड् भू आल्सो इस् देयर्, प्रत्यक्षी भवति, प्रत्यक्षी भू भू वर्ब् क्रियापदम् अस्ति, प्रत्यक्षी भू इस् कम् बिफोर् द ऐस्.
अस्तु, तत्र
वर्ब् अस्ति क्रियापदम्,
इट्स् लैक् क्रु धातु स्वच्छीकरोति अङ्गीकरोति देट् वे, प्रत्यक्षीकरोति मे वि प्रत्यक्षीकरोति क्रु
धातु तादृश भवति, किन्तु कारणं किम् इति अपि किञ्चित् वक्तव्यम्. अस्तु, सर्वे अन्वेषणं कुर्मः, अग्रिमवर्गे तस्मिन् विषये चर्चामपि कुर्मः, समीचीनमेव. अस्तु, तर्हि तत्र भ्रमम अस्तु, क्षम्यतां, तत्र अन्ते अस्तु, गीताञ्जलि भगिनी भवती वदति वा तत्र अन्ते.
आं महोदय, ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः हरिः ॐ तत्सत् सर्वं कृष्णार्पणमस्तु हरिः ॐ
सर्वेभ्यो नमः धन्यवादः
धन्यवादः
नमस्कारः भगिनि नमस्कारः
नमस्ते
नमस्कारः भगिनि.